ततःपक्षिनादेन वृक्षभङ्गस्वनेन च बभूस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः विद्रुताश्च भयद्रस्ताः विनेदुर्मृगपक्षिणः रक्षसाञ्च निमित्तानि क्रूराणि प्रतिपेदिरे ततो गतायाम् निद्रायाम् राक्षस्यो विगताननाः तद्वनम् तद्सर्भग्नम् तञ्च वीरम् महाकपिम् सता दृष्ट्वा महाबाहुः महासत्त्वो महाबलः चकारसुमहद्रूपम् राक्षसीनाम् भयावहम् ततस्तम् गिरिसङ्काशम् अधिकायम् महाबलम् राक्षस्यो वानरम् दृष्ट्वा पप्रच्छुर्जनकात्मजाम् कोऽयम् कस्य कुतो वायम् किन्निमित्तमिहागतः कथम् त्वया सहानेन संवादः कृत इत्युत आचक्ष्वनो विशालाक्षि मा भूत्ते सुभगे भयम् संवादमसितापाङ्गे त्वया किम् कृतवानयम् अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी रक्षसाम् भीमरूपाणाम् विज्ञाने मम का गतिः यूयमेवाभिजानीत योऽयम् यद्वा करिष्यति अहिरेव ह्यहेः पादानि विजानाति न संशयः अहमप्यस्य भीतास्मि नैनम् जानामि कोऽन्वयम् वेद्मि राक्षसमेवैनम् कामरूपिणमागतम् वैदेह्यावचनम् श्रुत्वा राक्षस्यो विद्रुता दिशः स्थिताः काश्चिद्गताः काश्चित् रावणाय निवेदितुम् रावणस्य समीपे तु राक्षस्यो विकृताननाः विरोपम् वानरम् भीमम् आख्यातुमुपचक्रमुः अशोकवनिका मध्ये राजन् भीमवपुः कपिः सीतया कृतसंवादः तिष्ठत्यमित विक्रमः न च तम् जानकी सीता हरिं हरिणलोचना अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति वासवस्य भवेद्दूतो दूतो वै श्रवणस्य वा प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् नानामृगगणाकीर्णम् प्रविष्टम् प्रमदावनम् न तत्र कश्चिदुद्देश यस्तेन विनाशितः यत्र सा जानकी सीता स तेन न विनाशितः जानकी रक्षणार्थम् वा श्रमाद्वा नोपलक्ष्यते अथवा कश्रमस्तस्य सैव तेनाभिरक्षिता चारुपल्लवपुष्पाढ्यम् यम् सीता स्वयमास्थिता प्रवृद्धशिंशपवृक्षः स च तेनाभिरक्षितः तस्योऽग्ररूपस्योऽग्रम् त्वम् दण्डमाज्ञातुमर्हसि सीता सम्भाषिता येन तद्वनम् च विनाशितम् मनः परिगृहीताम् ताम् तव रक्षो गणेश्वर कस्सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः राक्षसीनाम् वचः श्रुत्वा रावणो राक्षसेश्वरः हुताग्निरिवज्ज्वाल कोपसंवर्तिते क्षणः तस्य क्रुद्धस्य नेत्राभ्याम् प्रापतन्नस्रबिन्दवः दीप्ताभ्यामिव दीपाभ्याम् सार्चिषस्नेहबिन्दवः आत्मनस्सदृशान् शूरानि किङ्करान्नाम राक्षसान् व्याधिदेशमहातेजाः निग्रहार्थम् हनोपतः तेषामशीतिसाहस्रम् किङ्कराणाम् तरस्विनाम् निर्ययुर्भवनात् तस्मात् कूटमुद्गरपाणयः महोदरा महादमुष्ट्राः घोररूपा महाबलाः युद्धाभिमनसः सर्वे हरुमद्ग्रहणोन्मुखाः ते कपिम् त्वम् समासाद्य तोरणस्थमवस्थितम् अभिभेतुर्महावेगाः पतङ्गा इव पावकम् ते गदाभिर्विचित्राभिपरिघैः काञ्चनाङ्गदैः आजघ्रुर्वानरश्रेष्ठम् शरैरादित्यसन्निभैः मुद्गरैः पष्टिशैः शूलैः प्रासतोमरशक्तिभिः परिवार्य हनूमन्तम् सहसा तस्थुरग्रतः हनूमानपि तेजस्वी श्रीमान् पर्वतसन्निभः क्षिता वाविध्यलाङ्गूलम् ननानज महास्वरम् स भूत्वा सुमहाकायः हनूमान् मारुतात्मजः धृष्टमास्फोटयामास लङ्काम् शब्देन पूरयन् तस्यास्फोटितशब्देन महता चानुनादिना पेतुर्भ्यङ्गाः गगनाथे उच्चैश्चेदमघोषयति जयत्यधिबलो रामः लक्ष्मणश्च महाबलः राजा जयति सुग्रीवः राघवेणाभिपालितः दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः हनूमान् शत्रुसैन्यानाम् निहन्ता मारुतात्मजः न रावणसहस्रम् मे युद्धे प्रतिबलम् भवेत् शिलाभिस्तु प्रहरतः पादपैश्च सहस्रतः अर्दयित्वा पुरीम् लङ्काम् अभिवाद्य च मैथिलीम् समृद्धार्थो गमिष्यामि मिषताम् सर्वरक्षसाम् तस्य सन्नादशब्देन ते भवन्भयशङ्किताः तदृशश्च हनूमन्तम् सन्ध्यामेघमिवान्नतम् स्वामिसन्देशनिःशङ्काः त्रितस्ते राक्षसाः कपिम् चित्रैः प्रहरणैर्भीमैः अभिभेदुः सहस्रशः सदैः परिवृतः शूरैः सर्वतः स महाबलः आससादाय सम्भीमम् परिघम् तोरणाश्रितम् सतम् परिघमादाय जघारचरिषाचरान् सपन्नगमिवादाय स्फुरन्तम् विनता सुतः विचचाराम्बरे वीरः परिगृह्य च मारुतिः सहत्वा राक्षसान् वीरान् किङ्करान् मारुतात्मजः युद्धाकाङ्क्षे पुनर्वीरः तोरणम् समुपाश्रितः ततस्तस्माद्भयान्मुक्ताः कतिचित् तत्र राक्षसाः नियतान् किङ्करान् सर्वान् रावणायन्यवेदयन् स राक्षसानाम् निहतम् महद्बलम् निशम्य राजा परिवृत्तलोचनः समाधिदेशाप्रतिमम् पराक्रमे बृहस्तपुत्रम् समरे सुदुर्जयम् इत्यार्षे श्रीमद् रामायणे वाल्मीकी आदिकाव्ये चतुर्विंशसहस्रिकायाम् संहितायाम् सुन्दरकाण्डे द्विचत्वारिंशत् सर्गः।